इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। आदौ मुख्याः वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना कृषि क्षेत्रे अनुसन्धान नवाचारयोः आवश्यकतासु बलं प्रदत्तम्। प्रशासनेन प्रधानमन्त्री सूर्य घर मुफ्त बिजली योजनायाः अन्तर्गतं प्रारूपित सौर ग्रामस्य कार्यान्वयनाय एकः परिचालन दिग्निर्देशः प्रख्यापितः। प्रशासनम् उक्तवत् यत् हस्तवेम हस्तशिल्पयोः निर्यातं दैशिक विक्रयं च संवर्धयितुं विभिन्नाः पदक्षेपाः उत्थापिताः। बिहारराज्ये जहानाबाद जनपदस्य सिद्धेश्वरनाथ देवालये आकस्मिकरूपेण जातेन जनसम्मर्देन सप्तजनानां मृत्युः अभवन्। अपि च गजानां संरक्षणं वर्धयितुम् अद्य विश्व गज दिवसः समाचर्यते। प्रधानमन्त्री नरेन्द्रमोदी गजानां कृते अनुकूलावासं सुनिश्चेतुं प्रशासनस्य प्रतिबद्धतां पुनरावर्तितवान्। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्रमोदिना नवदिल्लीस्थे भारत कृष्यनुसन्धान संस्थाने जलवायु समेकित उत्पादाधारितानां सस्यानां नवोत्तरैकशत प्रकारकाणि सस्यबीजानि प्रख्यापितानि। एतेषु नवोत्तरैकशत बीजेषु चतुस्त्रिंशत् क्षेत्रीय सस्यानि, सप्तविंशतिः उद्यान सस्यानि समेत्य अन्य सस्यबीजानि सम्मिलितानि सन्ति। एतदतिरिच्य उद्यानसस्येषु फलानि, शाकानि, पुष्पाणि, औषधीय पादपाः च सम्मिलिताः वर्तन्ते। एतेषु विषयेषु कृषक वैज्ञानिकैः सह परिचर्चां कुर्वन् प्रधानमन्त्री कृषिक्षेत्रेषु अपि मूल्यवर्धनस्य महत्वं सबलं प्रतिपादितवान्। कृषकैः प्रतिपादितं यत् एतानि नवीनानि सस्योत्पादकानि बीजानि अत्यधिकानि लाभप्रदानानि भविष्यन्ति, यतोहि एतानि बीजानि तेषां कृषिव्ययं न्यूनीकरणं करिष्यन्ति, सममेव पर्यावरणस्य अपि संरक्षणं करिष्यन्ति। असौ प्राकृतिक कृषेः लाभाः समेत्य जैविक कृषिं प्रति जनानां संवर्धित विश्वासस्य विषये अपि परिचर्चां विहितवान्। प्रशासनेन प्रधानमन्त्री सूर्य घर मुफ्त बिजली योजनायाः अन्तर्गतं प्रारूपित सौर ग्रामस्य कार्यान्वयनाय एकः परिचालन दिग्निर्देशः प्रख्यापितः। नवीन नवीकरणीयोर्जा मन्त्रालयेन समुदीरितं यत् अस्याः योजनायाः अन्तर्गतं समग्रदेशे प्रतिजनपदे एकं प्रारूप सौर ग्रामं निर्मातुं बलं प्रदत्तम् अस्ति, तथा च अस्मै घटकाय आहत्य 800 कोटि रूप्यकाणि अपि आवंटितानि। केन्द्रीय वस्त्र मन्त्री गिरिराज सिंहः अभिव्यक्तवान् यत् हस्तवेम हस्तशिल्पयोः निर्यातं दैशिक विक्रयं च संवर्धयितुं विभिन्नाः पदक्षेपाः उत्थापिताः। नवदिल्ल्यां हस्तवेम प्रदर्शन्यां मन्त्री प्रख्यापितवान् यत् सम्प्रति हस्तवेम कर्मकराः राष्ट्रिय भूषाचार प्रौद्योगिक संस्थानेन सह संयोज्यमानाः विद्यन्ते, येन हि ते कर्मकराः नवीन भूषाचारं प्रस्तोतुं शक्नुवन्ति। श्रीसिंहः अग्रे न्यगादीत् यत् हस्तवेम क्षेत्रे भारतस्य अंशः 90% यावदस्ति, अस्मै क्षेत्राय च 35 लक्षाधिकं परिवाराः कार्यं सम्पादयन्ति। बिहारराज्ये जहानाबाद जनपदस्य सिद्धेश्वरनाथ देवालये आकस्मिकरूपेण जातेन जनसम्मर्देन सप्तजनानां मृत्युः अभवन्। अपि च एतस्यां घटनायां 16 जनाः व्रणिताः अपि जाताः। एते जनाः सम्प्रति जहानाबाद चिकित्सालये उपचाराधीनाः वर्तन्ते। जहानाबादस्य आरक्षि अधीक्षकः अरविन्द प्रतापसिंहः प्रावोचत् यत् ह्यः रात्रौ भक्त विक्रेत्रोः मध्ये समुत्पन्नेन विवादेन एषः जनसम्मर्दः समागतः। अस्माकं वार्ताहरः सूचितवान् यत् पवित्र श्रावणमासस्य चतुर्थं सोमवासरम् अभिलक्ष्य बृहत्तमायां संख्यायां श्रद्धालवः मन्दिरे एतस्मिन् पूजार्चनां विधातुम् एकत्रिताः अभवन्। श्रीसिंहः अग्रे प्रोक्तवान् यत् आरक्षिणः निरीक्षणं कुर्वन्ति, अपि च दोषिणः प्रति कठोराचरणमपि विधास्यते। मुख्यमंत्री नीतीशकुमारः मृतक परिवारेभ्यः चतुर्लक्ष रूप्यकाणाम् अनुग्रह राशिमपि उद्घोषितवान्। प्रियाः श्रोतारः, संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। स्वतंत्रता दिवस समारोहस्य पूर्वं जम्मू कश्मीरस्य अनेकेषु जनपदेषु त्रिवर्णध्वजः समागमः समायोज्यन्ते। उपराज्यपालस्य मनोज सिन्हा इत्यस्य नेतृत्वे अद्य श्रीनगरे विशाल त्रिवर्णध्वजयात्रा कृता, यस्मिन् सहस्रं जनाः भागं भजितवन्तः। डलसरोवरस्य तटे स्थितस्य शेरे कश्मीर अन्ताराष्ट्रिय सम्मेलन केन्द्रस्य बोटानिकल गार्डन इत्यस्य च मध्ये एषा जनसभा समायोजिता आसीत्। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् जम्मू कश्मीर प्रदेशस्य त्रिवर्णध्वजयात्रा प्रेरणादायिनी वर्तते। श्रीमोदिना उपराज्यपालेन मनोज सिन्हा इत्यनेन विहितस्य हर घर तिरंगा इति अभियानस्य प्रचार प्रसाराय प्रशंसा अपि कृता। अवधेयं वर्तते यत् नागरिकेषु राष्ट्रप्रेमभावं प्रवर्धयितुं देशे सर्वत्र अस्य मासस्य पञ्चदश दिनांक पर्यन्तं एतदभियानम् आचर्यते। अस्य उपक्रमस्य अन्तर्गतं प्रशासनेन स्वगृहे त्रिवर्णध्वजम् उत्थापयित्वा ध्वजेन सह स्वछायाचित्रं गृहीत्वा हरघर तिरंगा इति अन्तर्जालपटले उपारोपणं कर्तुं जनैः आग्रहः कृतः। अस्य उपक्रमस्य अन्तर्गतम् अभिनेता आर माधवनः अपि नागरिकैः स्वगृहेषु राष्ट्रध्वजारोहणं कर्तुम् आग्रहं कृतवान्। विदेशमन्त्री डॉ एस जयशंकरः तस्य च मालदीवस्य समकक्षः मूसा जमीर इत्येषः चतुर्विंशत्यधिकद्विसहस्रतमवर्षतः नवविंशत्यधिकद्विसहस्रतमवर्षपर्यन्तं सहस्रं जनसेवाधिकारिणां क्षमतानिर्माणार्थम् अस्य मासस्य नवमे दिनांके मालदीवदेशस्य राजधान्यां पुरातनम् अनुबन्धपत्रमेकं नवीनं कृतवन्त।